ततो देवी शरीरातु विनिष्क्रांथादिभीषण चंडिका शक्तिरत्युग्रा शिवा सतनिनादिनी साचाह धूम्र जटिलं ईशानम पराजिता तूदत्वं कच्छ भगवन् पाश्वं शुंबनि शुंबयोः ब्रूहि शुंबं निशुंबं च दानवावति गर्वितौ ये चान्ये तानवास्तत्र युद्धाय समुपस्थिताः त्रैलोक्येमिन्द्रो लभतां देवा सन्तु हविर्भुजः यूयं प्रयात पातालं यति जीवितुमिच्छत फलावलेपा तदचेत् भवन्थो युद्धकाङ्क्षिणः तथा कच्छद तृप्यन्तु मच्छिवापि सिते नवः यतो नियुक्तो दैत्येन थया देव्या शिव स्वयं शिवदूतीति लोकेऽस्मिन् ततः शाख्याति मा कथा तेऽभिश्रुत्वा वशो देव्या सर्वाख्यातं महासुरा अमशा पूरिता जग्मुर्यत्र खात्यायनी स्थिता ततः प्रथममेवाग्रें शरशक्तिवृष्टिभिः वशुरुद्धथामशास्थां देवी ममरारयः शाशदान् प्रहितान् पानान् शूलशक्तिपरश्वतान् चिच्छेदलीलयात्माता तनुमुक्तैर्महेशुभिः तस्याक्रदस्तता काली शूलपादवितारितान् कट्वाङ्गपोदितां चारीं कुर्वती व्यशरत्तता